ओम नमो भगवते वासुदेवाय। अथ पञ्चमोऽध्यायः। श्री शुक उवाच, नन्दस्त्वात्मज उत्पन्ने जातहल्लादो महामनाः, आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलङ्कृतः, वाचयित्वा स्वस्त्ययनम् जातकर्मात्मजस्य वै कारयामास विधिवत् पितृदेवार्चनम् तथा धेनूनाम् नियुते प्रादात् विप्रेभ्यः समलङ्कृते तिलाद्रीन् सप्तरत्नौघ शातकौम्भाम्बरावृतान् कालेन स्नानशौचाभ्याम् संस्कारैस्तपसेज्यया शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्मात्मविद्यया सौमङ्गल्यगिरो विप्राः सूतमागधवन्दिनः गायकाश्च जगुर्णे दुर्भेर्यो दुन्दुभयो मुहुः व्रजसंमृष्टसंसिक्तद्वाराजिरगृहान्तरः चित्रध्वजपताकास्रक्चैलपल्लवतोरणैः गावो वृषावत्सतरा हरिद्रातैलरूषिताः विचित्रधातुबरहस्रवस्त्रकाञ्चनमालिनः महार्हवस्त्राभरणकञ्चुकोष्णीषभूषिताः गोपाः समाययूराजन् नानोपायनपाणयः गोप्यश्चाकर्ण्यमुदिता यशोदायाः सुतोद्भवम् आत्मानम् भूषयाञ्चक्रुर्वस्त्राकल्पाञ्जनादिभिः नवकुङ्कुमकिञ्जल्कमुखपङ्कजभूतयः बलिभिस्त्वरितम् जग्मुः पृथुश्रोण्यश्चलत्कुचाः गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्यश्चित्राम्बराः पथिशिखाच्युतमाल्यवर्षाः नन्दालयम् सवलया व्रजतीर्विरेजुर्व्यालोलकुण्डलपयोधरहारशोभाः ता आशिषः प्रयुञ्जानाश्चिरम् पाहीति बालके हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्यो जनमुज्जगुः अवाद्यन्तविचित्राणि वादित्राणि महोत्सवे कृष्णे विश्वेश्वरे नन्ते नन्दस्य व्रजमागते गोपाः परस्परम् वृष्टादधिक्षीरघृताम्बुभिः आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षुपुः नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनम् सूतमागतवन्दिभ्यो येऽन्ये विद्योपजीविनः तैस्तैकामैरदीनात्मा यथोचितमपूजयत् विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च रोहिणी च महाभागानन्दगोपाभिनन्दिता व्यचरद्दिव्यवासस्रक्कण्ठाभरणभूषिता तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् हरेर्निवासात्मगुणैरमाक्रीडमभून्नृप गोपान् गोकुलरक्षायाम् निरूप्य मथुराम् गतः नन्दः कंसस्य वार्षिक्यम् करम् दातुम् कुरुद्वः वसुदेव उपश्रुत्य भ्रातरम् नन्दमागतम् ज्ञात्वा दत्तकरम् राज्ञे ययौ तदवमोचनम् तम् दृष्ट्वा सहसोत्थाय देहप्राणमिवागतम् प्रीतः प्रियतमम् दोर्भ्याम् सस्वजे प्रेम विह्वलः पूजितः सुखमासीनः पृष्ट्वा नामयमादृतः प्रसक्तधीः स्वात्मजयोरिदमाह विशाम्पते दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्यते प्रजाशाया निवृत्तस्य प्रजा यत्समपद्यत दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवः उपलब्धो भवानद्य दुर्लभम् प्रियदर्शनम् नैकत्र प्रियसंवासः सुहृदाम् चित्रकर्मणाम् ओघेन व्यूह्यमानानाम् प्लवानाम् स्रोतसो यथा कच्चित्पशव्यम् निरुजम् भूर्यम् बुतृणविरुधम् बृहद्वनम् तदधुना यत्रास्ये त्वम् सुहृद्व्रतः भ्रातर्मम सुतः कश्चिन्मात्रा सह भवद्व्रजे तातम् भवन्तम् मन्वानो भवद्भ्यामुपलालितः पुंसस्त्रिवर्गो विहितः सुहृदोऽयनुभावितः न ते शुक्लिष्यमानेषु त्रिवर्गोऽर्थाय कल्पते नन्द उवाच अहो ते देवकी पुत्राः कंसेन बहवो हताः एकावशिष्टा वरजा कन्या सापि दिवङ्गता नूनम् यदृष्टनिष्ठोऽयमदृष्टपरमो जनः अदृष्टमात्मनस्तत्त्वम् यो वेद न समुह्यति वसुदेव उवाच करो वै वार्षिको दत्तो राज्ञे दृष्टा वयम् च वः नेहस्थेयम् बहुतिथम् सन्त्युत्पाताश्च गोकुले श्रीशुक उवाच इति नन्दादयो गोपाः प्रोक्तास्ते शौरिणाययुः अनोभिरनुडुद्युक्तैस्तमनुज्ञाप्य गोकुलम्। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायाम दशमस्कंधे पूर्वार्धे नंद वसुदेव संगमो नाम पंचमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोस्तुते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।